एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना रामचन्द्र पौडेलेन आगामिनः आर्थिक वर्षस्य कृते सर्वकारस्य नीति कार्यक्रमाः प्रस्तुताः सन्ति। ह्य नयाँ बानेश्वरवर्तिनी संघीय संसद भवने उपविष्टे संघीय संसदः प्रतिनिधिसभायाः राष्ट्रियसभायाश्च संयुक्तोपवेशे राष्ट्रपतिः पौडेलः संविधानस्य पञ्चनवतितम्याः धारायाः तृतीयोपधारायाः अनुसारेण सर्वकारस्य आगामिनः आर्थिक वर्षस्य कृते नीति कार्यक्रमान् प्रास्तौत। सर्वकारस्य नीति कार्यक्रमान् प्रस्तुवन् राष्ट्रपतिः पौडेलः सर्वेषाम् राजनीतिकदलानां सहमतौ आवश्यकतायाः औचित्यस्य च आधारेण संविधान संशोधनस्य प्रक्रिया अग्रे सार्यते इत्युक्तवान्। तथैव देशस्य आर्थिक समृद्धिः सुशासनम् भ्रष्टाचार निवारणञ्च सर्वकारस्य प्राथमिकतायां वर्तन्ते इति च राष्ट्रपतिः पौडेलः समस्पष्टयत्। एवमेव वर्तमान सर्वकार संगठनस्य बेलायां विहितायाः सहमतेः सत्तारूढदलैः प्रस्तुतस्य न्यूनतम संयुक्त कार्यक्रमस्य च आधारेण नीति कार्यक्रमाः आनीताः सन्ति इति च राष्ट्रपति पौडेलः समस्पष्टयत्। राष्ट्रपतिना पौडेलेन प्रस्तुतेषु नीति कार्यक्रमेषु नेपालस्य सार्वभौमसत्तायाः स्वतन्त्रतायाः भौगोलिक्याः अखण्डतायाः राष्ट्रियैकतायाः राष्ट्रियहितस्य संघीय लोकतान्त्रिक गणतन्त्रस्य रक्षायाश्च विषयेषु सर्वकारः दृढस्तीति इत्युल्लिखितम् वर्तते। एवमेव स्तरत्रयस्यापि सर्वकारस्य योजनाः प्रभावकारिणीः विधातुम् केन्द्र प्रदेश स्थानीय स्तराणाम् योजनासु विद्यमानम् द्वैविध्यम् निवारयितुम् च एकीकृत योजना कोषस्य स्थापना करिष्यते इति च सर्वकारस्य नीति कार्यक्रमेषु लिखितम् वर्तते। एवमेव सर्वेऽपि उद्योगाः प्रतिष्ठानानि च अनिवार्यरूपेण सामाजिक सुरक्षा कोषे सूचीकरिष्यन्ते इति च नीति कार्यक्रमेषु समुल्लिखितम् अस्ति। अथ च राष्ट्रस्य आर्थिक संकटग्रस्तावस्थायाम् आगामिनः आर्थिक वर्षस्य आयव्ययकस्य विनियोजनत्वेन सर्वकारेण नीति कार्यक्रमाः आनीताः वर्तन्ते। मूलतः शिक्षा स्वास्थ्य कृषि सेचन जलविद्युताम् आर्थिक सामाजिक महत्वानां च क्षेत्रेषु दूरगामी प्रभाव सर्जनत्वेन योजनाः नीति कार्यक्रमेषु समाविष्टाः सन्ति। एवमेव राष्ट्रिय पूर्वाधार विकासस्य सूचना प्रविधेः पर्यटन क्षेत्रस्य च विकासाय च महत्वपूर्णाः योजनाः सर्वकारस्य नीति कार्यक्रमेषु समाविष्टाः सन्ति। सर्वकारेण अर्थतन्त्रस्य सुधाराय पूर्व सचिवस्य रामेश्वर खनालस्य संयोजकत्वे संघटितस्य उच्चस्तरीयार्थिक सुधार परामर्शायोगस्य परामर्शानुसारेण अर्थतन्त्रस्य सुधारस्य योजनाः कार्यक्रमाश्च राष्ट्रपतिना प्रस्तुतेषु नीति कार्यक्रमेषु समाविष्टाः वर्तन्ते। अत्रान्तरे सर्वकारस्य नीति कार्यक्रमेषु सांसदैः मिश्रित प्रतिक्रियाः प्रदत्ताः वर्तन्ते। सत्तापक्षस्य सांसदैः नीति कार्यक्रमेषु सर्वकारस्य स्पष्टा नीतिः दूरगामी लक्ष्यम् विकासस्य मार्गचित्रञ्च दृष्टानि सन्तीति प्रतिक्रिया दत्ता अस्ति चेत् प्रतिपक्षदलस्य सांसदैः केवलम् परम्पराम् पूरयितुमेव नीति कार्यक्रमाः आनीताः सन्ति तेषु कापि नूतन योजना नास्तीति प्रतिक्रिया दत्ता वर्तते। राष्ट्रपतेः सम्बोधनानन्तरम् संघीय संसद सदनद्वयस्य पृथक् पृथक् उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिना संघीय संसद द्वयोः सदनयोः संयुक्तोपवेशे पूर्वेद्युः राष्ट्रपतिना पौडेलेन भीतस्य सम्बोधनस्य प्रपत्रम् पञ्जीकारितम् वर्तते। द्वयोः सदनयोः पृथक् पृथक् उपवेशेन राष्ट्रपतिना पौडेलेन संघीय संसदः संयुक्तोपवेशे विहितस्य सम्बोधनस्य कृते राष्ट्रपतये धन्यवाद प्रस्तावः सर्वसम्मत्या पारितीकृतो वर्तते। नीति कार्यक्रमेषु आगामिनः सोमवासरात् संसदि विमर्शनम् भवितेति सभामुख देवराज घिमिरे असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति देशविकासस्य प्रयासाय सुशासनस्य स्थापनाय च सूचना प्रविधेर महत्वपूर्ण भूमिका वर्तते। सूचना प्रविधेरभियानम् वैद्युताङ्कनयुत नेपालस्य निर्माणमिति समाघोषेणा अष्टम राष्ट्रिय सूचना संचार प्रविधि दिवसस्य कार्यक्रमम् पूर्वेद्युः उद्घाटयन् प्रधानमन्त्री ओली वर्तमान युगः प्रविधेर्माध्यमेन अग्रे वर्धनस्य युगोस्तीति चर्चयन् जनतायै सहजरूपेण सेवायाः प्रवाहस्य सन्दर्भे सुशासनम् स्थापयितुम् भ्रष्टाचारस्य नियन्त्रणाय च सूचना प्रविधेः योगदानम् प्रशंसनीयम् अस्तीति प्रावोचत। तदवसरे प्रधानमन्त्री ओली नेपाले मार्ग प्रवृत्ति पूर्वाधार निर्माणस्य कार्यम् सम्भूतमस्तीत्यतः सूचना प्रविधेय क्षेत्रे निवेशनम् कर्तुम् वैदेशिक निवेशन कर्तृन् अन्वरुणात। कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ नेपाले सूचना प्रविधेय क्षेत्रस्य विकासाय विस्ताराय च सर्वप्रथमम् नीतिगत व्यवस्थायाः आवश्यकता अस्ति, तदर्थम् सर्वकारेण कार्यम् विधीयमानम् च वर्तते इति असूचयत। कार्यक्रमे राष्ट्रिय योजना युगस्य सदस्य डाक्टर प्रकाश कुमार श्रेष्ठ ललितपुर महानगरपालिकाया प्रमुख चिरीबाबु महर्जनन् च विचारम् व्यक्तवन्तौ। तदवसरे सूचना प्रविधेय क्षेत्रे योगदान प्रापकाः जनाः संस्थाश्च पुरस्कृताः आसन्। सर्वकारेण टीकोषधानाय अवशिष्टान् पञ्चवर्षतः न्यूनवयस्कासु बालिकासु अस्यैव वैशाख मासस्य एकत्रिंशे दिवसे टीकौषधानम् करिष्यते। स्वास्थ्य सेवा विभागस्य बाल स्वास्थ्य टीकौषध शाखायाः प्रमुख डाक्टर अभियान गौतमः अवशिष्टासु बालबालिकासु नवविधानाम् नियमित टीकौषधानम् करिष्यते इति असूचयत। राष्ट्रपतिना रामचन्द्र पौडेलेन सह अजरबैजान देशस्य उपविदेश मन्त्रिणा एल्नूर मामेडोव इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य सम्भूते मेलने राष्ट्रपति पौडेल द्वयोः देशयोः सम्बन्धस्य विषये नवीना प्रगति सम्भूतास्तीत्युक्त्वा प्रसन्नताम् प्रकटयन् द्वयोः देशयोः सहकार्यस्य क्षेत्राणि परिचित्य मिलित्वा कार्यम् विधातव्यमिति प्रावोचत। उपविदेश मन्त्री मामेडोव राष्ट्रपतेः पौडेल स्य अजरबैजान देशस्य भ्रमणेन द्वयोः देशयोः सम्बन्धे नवीनस्य आयामस्य वर्धनम् सम्भूतमस्तीति चर्चयन् त्रिंशति वर्षेषु कस्यामपि संविधायाम् हस्ताक्षराणाम् अभावेऽपि आगामिनि दिनेषु कस्मिंश्चिदपि संविधापत्रे शीघ्रमेव हस्ताक्षराणि विधातुम् कार्यम् विधीयमानम् अस्तीति अगदत्। एवमेव प्रधानमन्त्रिणा केपी शर्मा ओलिना सह अपि अजरबैजान देशस्य उपविदेश मन्त्रिणा मामेडोव इत्यनेन ह्य शिष्टाचार मेलवार्ता विहिता अस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य सम्भूते एतयोर्मेलने द्वयोः देशयोः पारस्परिक सम्बन्धस्य सहकार्यस्य च विविधेषु विषयेषु विमृष्टम् इति ज्ञापितम् वर्तते। परराष्ट्र मन्त्रालयेन भारतस्य ओडिशा राज्यस्य केआईआईटी नाम्नि कलिंगा इन्स्टिच्यूट अफ इण्डस्ट्रियल टेक्नोलॉजी इत्याख्ये अध्ययन संस्थाने अध्ययनरतायाः वीरगंजनगरस्य पृषा साहित्यस्याः मृत्योः घटनायाः अनुसन्धानाय कौटनीतिक प्रयासाः प्रारब्धोऽस्तीति सूचितम् वर्तते। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा भारतस्य केआईआईटी इति नामाख्य अध्ययन संस्थाने अध्ययनरतायाः नेपाली छात्रायाः साहस्य स्वस्यैव प्रकोष्ठे मृतावस्थायाम् प्राप्तेः घटनातः आत्मना मर्माहतः अनुभूतोऽस्तीति भाषमाणा परराष्ट्र मन्त्रालयेन घटनायाः अनुपदमेव भारत सर्वकारस्य ओडिशा सर्वकारस्य उच्च पदाधिकारिणाम् दिल्लीवर्तिनः नेपाली दूतावासस्य च माध्यमेन घटनायाः सत्य अन्वेष्टुम् कौटनीतिक प्रयास प्रारब्धोऽस्तीति असूचयत। नेकपा एमाले दलस्य संसदीय दलस्य उपवेश अद्यतन दिवसाय आहूतोऽस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे अद्य दिवा एकवादनाय दलस्य उपवेशम् उपवेष्टुम् आहूतम् अस्तीति दलस्य मुख्य सचेतक पदीयो महेश वर्तौला असूचयत।